हेलो हेडिंग परिशिष्टम हेडिंग सुभाषित वाक्यानि अंगुलीयकम् मेव निदर्शनमवश्यम् भावचिन्तनीय समागमो भवति अचेतनम् नाम गुणम् न लक्ष्येत् अतनुषु विभवेषु ज्ञातयः सन्तु नाम अतिस्नेह पापशंकी अत्यारूढ़िर्भवति महताम्प्यभ्रंशनिष्ठा अनतिक्रमणीयानि श्रेयांसि अनतिक्रमणीयं मे सुहृदाख्यम् अनार्यः परदारव्यवहारः अनियन्त्रणानुयोगस्तपस्वीजनो नाम अनिर्वर्णनीयं परकलत्रम् अनुपपन्नं खल्विदृशं त्वयि अनुशयदुःखायेदं हितहृदयं सम्प्रति विबुद्धम् अन्यमेव भागधेयमेते तपस्विनो निर्वणयन्ति यो रत्नराशीनमपि विहायभिनन्द्यते अपरिचितस्यापि ते प्रतिलोमः संवृत्तः अपूर्वः खलु वो निग्रहा अरण्ये मया रुदितम् अर्थो हि कन्या परकीय एव अवश्यं भावचिन्तनीयः समागमो भवति अवसरोपसर्पणीया राजानः अस्य बालस्य तेऽपि संवादिनी आकृतिरिति विस्मितास्मि अस्त्येतत् अन्यसमाभिर्भूतं देवानाम् अहं तु तामाश्रमलां भूतां शकुन्तलामधिकृत्य ब्रवीमि अहो कामी स्वतां पश्यति अहो चेष्टा प्रतिरूपिका कामीजनमनोवृत्तिः अहो विघ्नत्यः प्रार्थितार्थसिद्धयः अहो सर्वास्वस्थासु रमणीयत्वमाकृति विशेषणाम् आपपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण भवितव्यम् आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः आशङ्गसे यदग्निं तदितं स्पर्शक्षमं रत्नम् इदं तत् प्रत्युत्पन्नमतिस्त्रेणमिति यदुच्यते इष्टप्रवास जनितान्यबलाजनस्य दुखानि नूनमत्री मातृसुधु सहानि उत्सर्पिणी खलु महतां प्रार्थना उत्सवप्रियः खलु मनुष्याः उपपन्नः खल्वस्याङ्गुलीयकामगमः उपपन्ना हि दारेषु प्रभृता सर्वतोमुखी एवमात्माभिप्रायं स भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते एवमादिभिरत्यामकार्य निवृत्तनिमयाङ्गुमधुभिराकृष्यते विषयिणः एष दास्याः पुत्रः कुसुम रसपाटच्चरः तत्र भवत्या वदनकमलभिलङ्घते एष नामानुग्रहो यच्छूदालवलार्थ हस्तिकन्धे प्रतिष्ठापितः एषोऽत्र भवान् नदीमत्रिकम्य मृगतृष्णिकां सङ्क्रान्तः ओदकान्तम् स्निग्धो जनोऽनुगन्तव्यः क इदानीं शरीरनिर्वारपयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति क इदानीं सकारमन्त्रणान्तु मुक्तलतां पल्लवितां सहते कथमिदानीं तास्यङ्गात् परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति कष्टं खल्वनपत्यता कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयति कादम्बरी साक्षिकमस्माकं प्रथम सौहार्दमिष्यते किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तते किमिभि मधुराणां मण्डनं नाकृतीनां किमीश्वराणां परोक्षं को नामोष्णोदकेन नवमालिकां सिञ्चति कोऽन्यहुत्वहात् दग्धुं प्रभवति गण्ड्योऽस्योपरि पिण्डकः संवृत्तः गुरुवपि विरहदुःखमाशबन्धः साहयति ग्लपयति यथा शशाङ्कः न तथा हि कुमुदवतीं दिवसः छायानु मूर्च्छति मलोपहत्प्रसादे तपः षड्भाग्यमक्षयं दतत्यदारणका हीनः तमस्तपति धर्माशौ कथमविर्भविष्यति तात् शकुन्तलाविरहितं शून्यमेव तपोवनं कथं प्रविशाव तेजोदयस्य युगपद्व्यसनोदयाभ्यां त्रिशङ्कुरिवान्तराले तिष्ठ। दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः दिष्टया धूमाकुलितदृष्टेरपि यजमानस्य पावके एवाहुतिः पतिता। न खलु धीमतां कश्चिद्विषयो नाम ननु प्रवातेऽपि निष्कम्पा गिरयः। न प्रभातरलं ज्योतिरुदेति वसुधातलात् नरनासिका लोल्लिप्रस्य जीर्णरिक्षस्य कस्यापि मुखे पतिष्यसि। पुण्याश्रम दर्शनेन तावत्मानं पुनिमहे पूर्वावधिरितं श्रेयो दुःखं हि परिवर्तते। प्रतिपत्रमाधीयतां यत्नः प्रमाणन्तः करणप्रवृत्तयः बलवदपि शिक्षितानां मत्यन्प्रत्ययं चेतः बहुलब्धा राजानः श्रूयन्ते। भवानिव विनीतानां शासितस्य वारणे प्रभविष्यति। भवितव्या खलु बलवती भवितव्यानां द्वाराणि भवन्ति सर्वत्र। भाग्यायत्तमत्तः परं न खलु तद्वाच्यं बधुबन्धुभिः। मनोरथानां तटप्रपातः मलिनमपि हिमांसोर्लक्ष्मीं तनोति। मूर्छन्त्यमि विकारः प्राणैश्चर्मत्तेषु रन्ध्रोपनिपातिनोऽर्थः। राजरक्षितव्यानि तपोवनानि नाम राज्ञां तु चरितार्था दुःखोत्तरैव लभेत् प्रार्थयित्वा न वा श्रियं। लोको नियम्यत इवात्मदशान्तरेषु वस्थे सुशिष्य परिदत्ताविधे वा शोचनीया संवृत्ता। वयं तत्त्वान्वेषी मधुकर हतास्त्वं खलु कृति। वशीनां हि परिप्रग्रह संश्लेषपराङ्गमुखी वृत्तिः। विकारं खलु परिमार्थतो ज्ञात्वानरम्भ प्रतिकारस्य। विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम विवक्षितं ह्यनुक्तमनुतापं जनयति। शिखण्डके ताड्यमानस्यासर्षा वीतरागस्य नास्तिदानीं मे मोक्षः। शुद्धे तु दर्पणतले शुलभावकाशा श्रिया दुरापः कथमीप्सितो भवेत्। सतां हि सन्देहपदेषु वस्तुषु प्रमाणन्तः कर्णप्रवृत्तयः। सदृश्मेतत् पूर्वंशप्रदीपस्य भवतः। सन्ततिच्छेद निरवलम्बनानां कुलानां मूलपुरुषावसाने सम्पदः परपुरुषमुपतिष्ठन्ते। सजमनुद्विद्धिं शैवलिनापि रम्यं सर्वः कान्तमात्मीयं पश्यति। सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः। सर्वः सगन्धेषु विश्वसिति द्वापित्रारण्यकावेव। सर्वासुस्थासु रमणीयकृताविशेषणां सागरमुज्झित्वा कुत्र वा महानद्यवतरति। सुविहितप्रयोगतार्यस्य न किमपि परिहास्यते। स्निग्धजनसंभिविक्तं हि दुःखं सहवेदनं भवति। स्त्रजमपि स्त्रिसन्ध्यः क्षिप्तां धुनुत्ते हि शङ्कया। स्वयमक्ष्याकुलीकृत्याष्टकरणं पृच्छसि स्वाधीनकुशलः सिद्धिमन्तः। इति सम्पूर्णम्। हेडिङ्ग् शुभाषितश्लोकाः।